इन्द्राकोभाम् वरुणा सुन्नमा पस्तोमो हविष्माम् अमृतो न होता यो वाम् हृदि करूमाम् अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वा इन्द्राहयो वरुणा चक्र आपी देवो मत्यः सख्याय प्रयस्वा सहन्ति वृत्रा स मिथेषु शत्रो नवोभिर्वा महद्भिः स प्रसृन्दे इन्द्राहरत्नम् वरुणाधेष्ठेच्छागृभ्यः स समानेभ्यः सा यदि सखाय सख्याय सोमैः सुतेभिः स्वप्रयसा मातरीते इन्द्रायुवम् वरुणादिज्यमस्मिन्नो जष्टमुग्रानि वज्रम् वज्रम् यो नो दुरेवो विगतिर्दभीतिस्तस्मिन्निमाथामभिभूत्योजाः इन्द्रायुवम् वरुणा भूतमस्याधियः प्रेतारा वृषभेव धेनोः सा नो दुहीयज्ञवसेवगत्वीसहस्रधारापया सा मही गौः लोके हितेतराय उर्वरा सुशीके वृषरश्च पुंसे इन्द्रानो अत्र वरुणास्यातामवोधस्मापरीतज्ञायाम् युवामिध्यवसे पूर्व्याजपदि प्रभूति गभीरस्वापि ृणीमहे सख्याय प्रियाय सूरामम् हृष्ठा पितरेव शम्भु तावाम् धियो वसेवा जगन्ती राजन्न जग्मुर्यभयोः सूदाहो श्रियेण गावसोममस्तुरिन्द्रम् गिरो वरुणम् मे मनीषाः इमायिन्द्रम् वरुणम् मे मनीषाग्मन्नुभद्रवीणमिच्छमानाः उपेमस्तुर्ज्योष्टारिवस्वो रघ्वीरिवस्रवसो भिक्षमाणाः अश्वस्य आत्मनारथ्यस्य पुष्टेर्नित्यस्य राजः पदाय स्याम ताचक्राराहूतजनव्यसीभिरस्मत्कारायो नियुतः सजन्ताम् आनो बृहन्ता बृहतीभिरूतीन्द्रजातम् वरुणवाजसातौ यद्यज्ञवः प्रदनासु प्रक्रीडान्तस्य वां श्यामसनितार आदेः